आदौ राम तपोवनादिगमनम् हत्वा मुर्गम कांचनम् वैदेही हरणम् जटायुमरणम् सुग्रीव संभाषणम् वालीनिर्दनम् समुद्रतरणम् लंकापुरी दाहनम् पश्चाद् रावण कुंभकर्ण हननम् चेतग्निरामायणम्।